ಏನಾಕ್ಷರಸಮಾಂ ನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರ ಕೃತ್ನ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ವಾಕ್ಯಕಾರಂ ವರರುಚಿಂ ಭಾಷ್ಯಕಾರಂ ಪತಂಜಲಿಂ ಪಾಣಿನಿಂ ಸೂತ್ರಕಾರಂ ಚ ಪ್ರಣತೋಸ್ಮಿ ಮುನಿತ್ರಯಂ. ಮುನಿತ್ರಯಂ ನಮಸ್ಕೃತ್ಯ ತದುಕ್ತಿ ಪರಿಭಾವ್ಯ ಚ ವೈಯಾಕರಣ ಸಿದ್ಧಾಂತ ಕೌಮುದೀಯಂ ವಿರಚ್ಯತೆ. ದ ಲಾಸ್ಟ್ ಕ್ಲಾಸ್ ವಾಸ್ ಕಟ್ ಆಫ್ ಸಡನ್ಲಿ ಬಿಕಾಸ್ ಆಫ್ ಸಮ್ ಪ್ರಾಬ್ಲಮ್ಸ್ ವಿತ್ ಮೈ ನೆಟ್ವರ್ಕ್ ಕನೆಕ್ಷನ್. ಸಾರಿ ಅಬೌಟ್ ದಟ್. ವಿಲ್ ಸ್ಟಾರ್ಟ್ ಫ್ರಮ್ ವೇರ್ ವಿ ಲೆಫ್ಟ್. ಈಕಾರಾಂತ ಪುಲ್ಲಿಂಗೇಶು ಪ್ರಾಯೇಣ ಸಾಮಾನ್ಯ ಶಬ್ದಾ ಸರ್ವೇ ಅಧೀತಾ. ಇದಾನೀಂ ಯತ್ರ ಕೇಶಾಂತರ ಶಬ್ದಾನಾಂ ಕಶ್ಚನ ವಿಶೇಷೋ ದೃಶ್ಯತೆ ತಾದೃಶಾಂ ಶಬ್ದಾನಾಂ ಅಧ್ಯಯನಂ ಭವತಿ. ಸಖಾಯಂ ಇಚ್ಛತಿ ಸಖೀಯತಿ ಇತಿ ನಾಮಧಾತುಃ. ಐ ಡೋಂಟ್ ನೋ ಇಫ್ ಐ ಹ್ಯಾವ್ ಯೂಸ್ಡ್ ದಿಸ್ ಟರ್ಮ್ ಅರ್ಲಿಯರ್. ನಾಮಧಾತು ಇಸ್ ವೇರ್ ಅ ಧಾತು ಇಸ್ ಡಿರೈವ್ಡ್ ಫ್ರಮ್ ಅ ಪ್ರಾತಿಪದಿಕ. ಯಥಾ ಮಯಾ ಉಕ್ತಂ ಧಾತವಃ ಭುವಾದಯೋ ಧಾತವಃ ಇತ್ಯನೇನ ಯೇ ಧಾತು ಸಂಜ್ಞಾಂ ಲಭಂತೆ ತಾದೃಶಾಃ ಪ್ರಾಯೇಣ ದ್ವಿಸಹಸ್ರಂ ಧಾತವಃ ಸಂತಿ. ಕಿಂತು ಸನಾದ್ಯಂತ ಧಾತವಃ ಇತ್ಯನೇನ ಸನಾದಿ ಪ್ರತ್ಯಯಾಂತಾನಾಮಪಿ ಧಾತು ಸಂಜ್ಞಾ ವಿಧೀಯತೆ. ತಾದೃಶೇಷು ಧಾತುಷು ಧಾತುಭ್ಯಃ ಧಾತವಃ ನಿಷ್ಪಾದ್ಯಂತೆ. ಯಥಾ ಪಿಬತಿ ಪಾತುಮಿಚ್ಛತಿ ಪಿಪಾಸತಿ. ಪಿಬತಿ ಇತಿ ಮೂಲಧಾತುಃ ಶುದ್ಧಧಾತುಃ. ಪಿಪಾಸತಿ ಅಥವಾ ಪಿಪಾಸ ಇತಿ ಸನಾದ್ಯಂತಃ ಧಾತುಃ. ಏವಮೇವ ಮೋದತೆ ಇತಿ ಶುದ್ಧಧಾತುಃ. ಮೋಮುದೀತಿ ಪುನಃ ಪುನಃ ಅಥವಾ ಅತಿಶಯೇನ ಮೋದತೆ ಇತ್ಯರ್ಥೆ ಯಂಗ್ಲುಗಂತಃ ಅಥವಾ ಯಂಗಂತಃ ಧಾತುರಪಿ ಭವತಿ. ಸೊ ದೇರ್ ಆರ್ ಟೂ ದೇರ್ ಆರ್ ಡಿಫ್ರೆಂಟ್ ಕೈಂಡ್ಸ್ ಆಫ್ ಸೆಕೆಂಡರಿ ಧಾತುಸ್. ದ ಪ್ರೈಮರಿ ಧಾತುಸ್ ಆರ್ ವಾಟ್ ಆರ್ ಲಿಸ್ಟೆಡ್ ಇನ್ ದ ಭಾದಿಗಳ. ಸೆಕೆಂಡರಿ ಧಾತುಸ್ ಆರ್ ದ ಧಾತುಸ್ ವಿಚ್ ಆರ್ ಡಿರೈವ್ಡ್ ಯೂಸಿಂಗ್ ಸಮ್ ಆಫ್ ದ ಸಫಿಕ್ಸಸ್ ಕಾಲ್ಡ್ ಸನ್, ಯಂಗ್, ಯಂಗ್ಲುಕ್, ಕ್ವಿಪ್, ಕೆಚ್, ಕಾಮ್ಯಚ್ ಎಕ್ಸೆಟ್ರಾ. ಇನ್ ದೀಸ್ ಧಾತುಸ್ ದೇರ್ ಆರ್ ಟೂ ಕೈಂಡ್ಸ್. ಒನ್ ಇಸ್ ವೇರ್ ಸೆಕೆಂಡರಿ ಧಾತು ಇಸ್ ಡಿರೈವ್ಡ್ ಫ್ರಮ್ ಎ ಪ್ರೈಮರಿ ಧಾತು. There is also a case where the secondary dhatu is derived from a panatipadika. Such dhatus are called namadhatus. Okay. So, sakhayam icchati. Sakhayam nama mitram atmanah icchati. Ityarthe. Sakhi iti shabdhat kyach prateha kriyate. Tata sakhiya iti dhatur bhavati. Tata kvip prateha kriyate. Kartrarthe kvip prateha kriyate. Dhatuna pratipadikam labhyate. Okay. ಸಖಿ ಇತ್ಯಸ್ಮಾತ್ ಕ್ಯಚ್ ಪ್ರತ್ಯಯ ಸುಪಾತ್ಮನಃ ಕ್ಯಚ್ ಇತ್ಯನೇನ ಸಖೀಯ ಇತಿ ದೀರ್ಘಃ ಭವತಿ. ಅಕೃತ್ ಸಾರ್ವಧಾತುಕಯೋರ್ ದೀರ್ಘಃ ಇತ್ಯನೇನ ಸಖಿ ಇತಿ ಹಸ್ವಾಂತಂ ದೀರ್ಘತ್ವೇನ ಪರಿಣಮತೆ. ಸಖೀಯ ಇತಿ ಧಾತುಃ ಸನಾದ್ಯಂತ ಧಾತವಃ ಇತ್ಯನೇನ ಅಸ್ಯ ಧಾತು ಸಂಜ್ಞಾ. ಧಾತುತ್ವೇ ಸತಿ ಕ್ವಿಪ್ ಚ ಇತ್ಯನೇನ ಕರ್ತೃರ್ಥೆ ಕ್ವಿಪ್ ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಸಖೀಯ ಕ್ವಿಪ್ ಕ್ವಿಪ್ ಪ್ರತ್ಯಯೇ ವಕಾರ ಏವ ಶಿಷ್ಯತೆ. ತತ್ರ ಅಕಾರಸ್ಯ ಸಖೀಯ ಇತ್ಯತ್ರ ಅಂತೇಯಃ ಅಕಾರಃ ತಸ್ಯ ಅತೋಲೋಪಃ ಇತ್ಯನೇನ ಲೋಪೋ ಭವತಿ. ಅರ್ಧಧಾತುಕೋಪದೇಶಕಾಲೇ ಯದಕಾರಾಂತಂ ತಸ್ಯ ಅಕಾರಸ್ಯ ಲೋಪಃ ಸ್ಯಾತ್ ತಸ್ಯ ಲೋಪಃ ಸ್ಯಾತ್ ಅರ್ಧಧಾತುಕೇ ಪರೆ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಸೊ ದಿಸ್ ಅಕಾರ ಗೆಟ್ಸ್ ಡಿಲೀಟೆಡ್ ಬೈ ಅತೋಲೋಪಃ. ನೆಕ್ಸ್ಟ್ ದ ಯಕಾರ ಆಲ್ಸೋ ಗೆಟ್ಸ್ ಡಿಲೀಟೆಡ್ ಬಿಕಾಸ್ ಆಫ್ ಲೋಪೋ ಭ್ಯೋರ್ವಲಿ. ವಕಾರ ಯಕಾರಯೋ ವಲಿ ಪರೆ ಲೋಪಃ. ವಕಾರ ದಿಸ್ ವ ಇಸ್ ವಲ್. ಸೊ ಹ್ಯಾವಿಂಗ್ ವ ಆಸ್ ದ ನಿಮಿತ್ತ ದ ಯಕಾರ ಗೆಟ್ಸ್ ಡಿಲೀಟೆಡ್. ಸೊ ಯು ಹ್ಯಾವ್ ಸಖೀ ವ. ಇದಾನೀಂ ಕಶ್ಚನ ಪ್ರಶ್ನ ಅತ್ರ ಸ್ಥಾನಿವದ್ಭಾವೋ ಭವತಿ ವಾ. ಕಥಂ ಸ್ಥಾನಿವದ್ಭಾವ ಅಲ್ಲೋಪಸ್ಯ ಸ್ಥಾನಿವತ್ವಾತ್. ಅಕಾರ ಅಥೋಲೋಪ ಇತ್ಯನೇನ ಯಃ ಅಕಾರ ಲುಪ್ತ ತಸ್ಯ ಸ್ಥಾನಿವದ್ಭಾವೇನ ಪುನರಾಗತಿ ಇತಿ. ಕಥಂ ಅಜಃ ಪರಸ್ಮಿನ್ ಪೂರ್ವವಿಧೌ ಪರನಿಮಿತ್ತ ಅಜಾದೇಶ. ಪರನಿಮಿತ್ತ ನಾಮ ಪ್ರತ್ಯಯ ನಿಮಿತ್ತ ಕ್ವಿಪ್ರತ್ಯಯ ನಿಮಿತ್ತ ಅಜಾದೇಶ ಅಕಾರಸ್ಯ ಲೋಪರೂಪ ಆದೇಶ. ಸ್ಥಾನಿವದ್ಭವತಿ ಸ್ಥಾನಿಭೂತಾದಜಃ ಪೂರ್ವತ್ವೇನ ದೃಷ್ಟಸ್ಯ ವಿಧೌ ಕರ್ತವ್ಯೇ. ಅತ್ರ ಈಕಾರ ಅಸ್ತಿ. ಈಕಾರ ಅಕಾರಾತ್ ಪೂರ್ವ. ಸೊ ನೌ ಇಫ್ ವಿ ಬ್ರಿಂಗ್ ಅಕಾರ ವೈ ಸ್ಥಾನಿವದ್ಭಾವ ಇಕಾರಾತ್ ಅಕಾರೇ ಪರೇ ಇಕೋ ಎಣತಿ ಇತ್ಯನೇನ ಎಣ್ ಪ್ರಾಪ್ನೋತಿ. ಇಫ್ ಅಕಾರ ಇಸ್ ಬ್ರಾಟ್ ಬೈ ಸ್ಥಾನಿವದ್ಭಾವ ವಿ ವುಡ್ ಹ್ಯಾವ್ ಎಣಾದೇಶ ಬಿಕಾಸ್ ಆಫ್ ಆರ್ ಬೈ ಇಕೋ ಎಣಚಿ. ವಿ ನೀಡ್ ಟು ಪ್ರಿವೆಂಟ್ ದ ಎಣಾದೇಶ. ಎಣಾದೇಶ ಇಸ್ ನಾಟ್ ಇಂಟೆಂಡೆಡ್. therefore nirtavartikam kvau luptam na sthanivat kvau nama krit pratyaye pare yaha lopah bhavati saha sthanivat na bhavati vipratyaye krite yo lopah athava vipratyayan nimitti krutya yaha lopah kriyate saha sthanivat na bhavati iti sutrarthah iti vartikarthah तेन स्थानिवद्भावो नास्ति इत्यायातं सखी व इति स्थिते वेरप्रत्यस्य इत्यनेन तस्य लोपे सखी इति प्रातिपदिकम् ईकारान्तं प्रातिपदिकम् इट इज ईकारान्त एंड इट मीन्स अ पर्सन हु डिजायर्स टू हैव अ फ्रेंड अस्य सुप्रत्यये कृते किं भवति इति प्रश्नः व्हाट वुड हैपन हाउ वुड वी गेट द रूपस ऑफ दिस सखी शब्द केवलस्य सखी इति ह्रस्वान्तस्य किं भवति सखा सखायो सखायः इत्यादि रूपाणि सुप्रत्यये परे अनंसौ इत्यनेन अनंगादेशः क्रियते सखी सु सखन् सु सर्वनामस्थाने च असम्बुद्धौ इत्यनेन उपधादीर्घः सखान् सु इति भवति हल्याभ्यो दीर्घात् सुतिस्य प्रक्तं हल् इत्यनेन सुलोपे सखान् नलोपः प्रातिपदिकान्तस्य इत्यनेन नलोपे सखा इति रूपसिद्धिः ह्रस्व इवर्णान्तस्य सखि शब्दस्य इदानीम् अयं दीर्घ इकारान्तः सखी शब्दः अत्र किं भवति इति चेत् एकदेशविकृतस्य अनन्यतया अनङ्नित्वे एकदेशविकृतम् अनन्यवत् इति काचन परिभाषा विद्यते यु सीन् दिस् मेनि टैम्स् इफ् संथिङ्ग् इस् पार्ट्लि चेञ्ज् इट् डस् नाट् चेञ्ज् इट्स् कम्प्लीट् ऐडेण्टिटि इफ् देर् इस् अ स्माल् चेञ्ज् इन् अ पार्टिकल् फार् एक्साम्पल् हियर् किं जातं प्रक्रियायां सखी शब्दः अस्ति यु नोटिस् वि स्टार्टेड् वित् सखी एण्ड् द इकार गेट्स् इलाङ्गेटेड् बै अकृत्सार्वधातुकयोर् दीर्घः आफ्टर् दट् वी हेव् नाट् टच्ड् दिस् पार्ट् वि हेव् डन् संथिङ्ग् वि हेव् एडेड् अ सफिक्स् वि हेव् चेञ्ज् अ सफिक्स् सो आन् बट् दिस् पार्ट् हेस् नाट् बीन् टच्ड् फ्रम् सखी फ्रम् ह्रस्व वि हेव् कन्वर्टेड् टु ए दीर्घ दट् इस् आल् देर् हेस् बीन् नो अदर् चेञ्ज् इन् दिस् पार्ट् सो एकदेशविकृतम् एकदेशे कस्मिंश्चित् भागे यद्विकृतं तत् अनन्यवत् अन्यवन्न भवति इट् डस् नाट् चेञ्ज् इट्स् ऐडेण्टिटि सो इवन् इफ् देर् इस् अ दीर्घ हियर् वि स्टिल् कन्सिडर् इट् एस् सखिशब्द यदि सखिशब्दः इति परिगण्यते तदा किं भवति अनंसौ इत्यनेन अनंगादेशः भवति सर्वनामस्थानेषु परेषु सख्युरसम्बुद्धौ इत्यनेन निद्वद्भावः भवति दीस् टु वेर् द स्पेसिफिक् कार्यस् विच् वर् गिवन् फार् सखिशब्द स्पेसिफिकली फार् सखिशब्द सिन्स् वि आर् कन्सिडरिङ्ग् दिस् सखी आल्सो एस् सखि अस्यापि अनङ् भवति निद्वद्भावोऽपि भवति तेन किं सुप्रत्यये परे सखा एवम् औ प्रत्यये कृते सखी औ स्थिते सख्युरसम्बुद्धौ इत्यनेन निद्वद्भावः निद्वद्भावे सति अचोणिति इत्यनेन वृद्धौ सखै औ ततः एचोयवायावः इत्यनेन आयादेशे सखायौ सखायः सखा सखायौ सखायः इति यथा सखिशब्दस्य तथैव सखी शब्दस्यापि भवति सम्बोधने किं भवति सखिशब्दस्य सम्बोधने किं रूपं कथं प्रक्रिया टेक् द ओरिजिनल् सखिशब्द वाट् वास् इट्स् रूप इन् सम्बोधन एण्ड् हौ वास् दट् रूप डिरैव्ड् एनिबडी सखिशब्दस्य किं रूपं भवति सम्बोधनं प्रथमाविभक्तौ हलो वट् इस् द रूप प्रक्रिया किं रूपं सखा सखायौ सखायः हे हे सखे इति रूपम्, यथा हे हरे तथा हे सखे। प्रक्रिया का, व्हाट वुड बी द प्रक्रिया फॉर हे सखे? सो रसस्य गुणः इत्यनेन गुणो भवति, राइट। हे सखी सु इति स्थिते, ह्रस्वस्य गुणः इत्यनेन गुणे कृते हे सखे सु इति भवति। हे सखे सु इति स्थिते एं ह्रस्वात् सम्बुद्धेः इत्यनेन सम्बुद्धिलोपे हे सखे। सो यू शुड नोटिस दैट दिस कार्य इज नॉट इंटेंडेड फॉर सखी शब्द, राइट। इट सेज ह्रस्वस्य गुणः, यत्र ह्रस्वः अस्ति तत्र भवति, अतः एव हरिशब्दस्यापि भवति हे हरे, पतिशब्दस्यापि भवति हे पते। So such karya will not apply here. Whatever was told specifically for sakhi shabda, sakhi shabdasya eva visheshataya yaduktam, tat karyam bhavati. Kuto bhavati ekadesha vikratasya ananyatvat. Kintu anyam anyat nimittam ashritya yat karyam bhavati taratra na pravartate. Since this is not the hrasva, hrasvasya gunaha iti guno na bhavati. Tadabhave he sakhi su iti sthite ऋत्वं विसर्गः ससजुषोरुः खरवसानयोर्विसर्जनीयः इति कृते हे सखीः इति रूपं। सखा सखायौ सखायः, हे सखीः, हे सखायौ, हे सखायः। सखी अम् इत्यत्र किं भवति इति प्रश्नः। वाट् इस् द सिचुएशन् इन् सखी अम्? अमिपूर्वः इत्यनेन आदौ पूर्वरूपं प्राप्नोति, तद्बाधित्वा अतिष्णुधातुभ्रुवां योर् इयङ् वङौ इत्यनेन इयङादेशः प्राप्नोति, तदपि बाधित्वा एरनेकाचो संयोगपूर्वस्य, बिकास् दिस् हेस् धातुसंज्ञा, दिस् इस् इवर्णान्तः धातुः, संयोगपूर्वकत्वं नास्ति, अनेकाचङ्गमस्ति इत्यतः एरनेकाचो संयोगपूर्वस्य इत्यनेन यण् प्राप्नोति। सख्युरसम्बुद्धौ इत्यनेन निद्वद्भावः प्राप्नोति। So what should we do here? Sakhi am itisthite niddadbhavah karaniyova iranekasaha ityanena yanadeshah karaniyova iti prashnaha. Ami purvarupat paratvad yani prapte, adav ami purvaha ityanena purvarupam prapnoti, tadbadhitva paratvat vipratishethe paramkaryam ityuktatvat iranekasaha sayoga purvasya iti yanadeshah prapnoti, tatopi paratvat यणादेशादपि परत्वात्, यणादेशः अस्ति ऐ थिङ्क् 6-4 इस् एरनेकाचो संयोगपूर्वस्य 6-3 or 6-4, ततोपि परत्वात् सख्युरसम्बुद्धौ, विच् इस् सप्तमाध्यायस्य प्रथमपादे विद्यते, परत्वात् सख्युरसम्बुद्धौ इति प्रवर्तते। तेन किं भवति? सखी अम् इति स्थिते सख्युरसम्बुद्धौ इति निद्वद्भावः, अचोयणिति इति वृद्धिः, एचोयवायावः इति आयादेशः, सखायम् इति रूपम्। सखायं सखायौ। आफ्टर् दिस् सर्वनामस्थानेषु सख्युरसम्बुद्धौ इति निद्वद्भावः, तदनन्तरं सर्वत्र एरनेकाचो संयोगपूर्वस्य इति यणादेशः, शसि यण् सख्यः। सो सखीशब्दस्य किं भवति? दिस् सखी शब्दस्य रूपाणि आदौ सर्वनामस्थानेषु परेषु ఇకారాంత సఖి శబ్దవద్ రూపాణి ఎవ్రీవేర్ ఎల్స్ అదాదిషు ప్రత్యయేషు పరేషు ఏరనేకాచో సంయోగ పూర్వస్య ఇతి యణాదేశ. సో యు సీ దిస్ ఈకారాంత పుల్లింగ సఖీ శబ్ద, సఖాయం ఇచ్చతి ఇత్యర్థే సఖీ శబ్ద నిష్పన్న, తస్య సఖా సఖాయౌ సఖాయః సఖాయం సఖాయౌ. सर्वनामस्थानेषु एकदेशविकृतन्यायेन, एकदेशविकृतम् अनन्यवत् इति उक्तत्वात् सखिशब्दस्य यत् कार्यम् अनादेशः निद्वद्भावो वा भवति तेन रूपं भिद्यते. अनन्तरम् अन्यत्र अजादिषु प्रत्ययेषु सखी अस् इति स्थिते एरनेकाचो संयोगपूर्वस्य इति यणादेशः, सख्यः, सख्या, सखिभ्यां, सखीभ्यां, सखीभिः, सख्ये, सखीभ्यां, सखीभ्यः इत्यादि ಸ್ಪಿನೋಟ್ ಸಖ್ಯೋಹು ಸಖ್ಯಾಂ ಸಖಿ ಸಖ್ಯೋಹು ಸರ್ವತ್ರ ಯಣಾದೇಶ. ನಸಿಂಗಸೋಹು ವಿಶೇಷ ಸಖೀ ಅಸ್ ಇತ್ಯಸ್ತಿ ಏರನೇಕಾಚೋ ಸಂಯೋಗ ಪೂರ್ವಸ್ಯ ತೇನೇನ ಏನು ಕ್ರಿಯತೆ ಸಖ್ಯಸ್ ಇತಿ ಭವತಿ. ಯಣಾದೇಶೇ ಕೃತೆ ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ. ಟು ರಿಮೆಂಬರ್ ದಿಸ್ ಸೂತ್ರ, ದಿಸ್ ವಾಸ್ ಆಲ್ಸೋ ಸ್ಟಡೀಡ್ ಇನ್ ಸಖಿ ಶಬ್ದ. ಕೃತಯಣಾದೇಶಾಭ್ಯಾಂ ಖಿ ಖಿ ಶಬ್ದಾಭ್ಯಾಂ ತಿ ತಿ ಶಬ್ದಾಭ್ಯಾಂ ಚ ಪರಸ್ಯ ನಸಿಗಸೋಃ ಅತಿಪರೆ ಉತ್ತಮ ಭವತಿ ಉಕಾರಃ ಏಕಾದೇಶಃ ಭವತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಯು ಹ್ಯಾವ್ ಸಖಿ ಅಸ್ ಸಖ್ಯಸ್ ಇತ್ಯಸ್ತಿ ಯಣಾದೇಶೇ ಕೃತೆ ತತ್ರ ಉತ್ತಮ ಭವತಿ. ಯು ಕನ್ವರ್ಟ್ ದ ಅಕಾರ ಟು ಉಕಾರ, ದೇರ್ ಫೋರ್ ಇಟ್ ಬಿಕಮ್ಸ್ ಸಖ್ಯುಃ. ಲೈಕ್ ವಿ ಹ್ಯಾಡ್ ಇನ್ ಸಖಿ ಶಬ್ದ, ಹಿಯರ್ ಆಲ್ಸೋ ಇಟ್ ಬಿಕಮ್ಸ್ ಸಖ್ಯುಃ ಇತಿ ವಿಶೇಷ. ಸೊ ದ ಸ್ಪೆಷಲ್ ಥಿಂಗ್ ಇಸ್ ಇನ್ ಸರ್ವನಾಮಸ್ಥಾನ ವಿ ಹ್ಯಾವ್ ಅನನಾದೇಶ ನಿದ್ವದ್ಭಾವ, ಆ್ಯಂಡ್ ಇನ್ ನಸಿ ಆ್ಯಂಡ್ ನಸ್ ಪ್ರತ್ಯಯ ವಿ ಹ್ಯಾವ್ ಉತ್ತಮ ಬೈ ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ. ಅನ್ಯತ್ರ ಸರ್ವತ್ರ ಏರನೇಕಾಚೋ ಸಂಯೋಗ ಪೂರ್ವಸ್ಯ ಇತಿ ಯಣಾದೇಶ. ಸೊ ದಿಸ್ ಇಸ್ ಒನ್ ಟೈಪ್ ಆಫ್ ಸಖೀ ಶಬ್ದ, ಬಟ್ ದರ್ ಇಸ್ ಆಲ್ಸೋ ಅನದರ್ ಸಖೀ ಶಬ್ದ ಸಹ ಖೇನ ವರ್ತದೆ ಇತಿ ಸಖಃ. ಖೇನ ಖಂ ನಾಮ ಆಕಾಶಂ ಅಂಬರಂ, ಸ್ಕೈ ಇಸ್ ಕಾಲ್ಡ್ ಖ. ಖೇನ ಸಹ ವರ್ತತೆ ದಟ್ ವಿಚ್ ಇಸ್ ಆಲ್ವೇಸ್ ಇನ್ ದ ಸ್ಕೈ, ಸೇ ಅ ಬರ್ಡ್ ಕುಡ್ ಬಿ, ಇಟ್ ಇಸ್ ಕಾಲ್ಡ್ ಸಖಃ. ದಿಸ್ ಇಸ್ ಎನ್ ಅಕಾರಾಂತ ಪುಲ್ಲಿಂಗ ವರ್ಡ್ ಸಖಃ. ಖೇನ ಸಹ ವರ್ತತೆ ಇತಿ ಸಖಃ. ಸಖಂ ಇಚ್ಛತಿ, ದ ಪ್ರೀವಿಯಸ್ ಒನ್ ವಾಸ್ ಸಖಿ. ಸಖಾಯಂ ಇಚ್ಛತಿ ಇತಿ ಸಖೀಹಿ ಇತಿ ಸಖಾ. ಅತ್ರ ತು ಸಹ ಖೇನ ವರ್ತತೆ ಇತಿ ಸಖಃ ತಂ ಇಚ್ಛತಿ ಇತ್ಯರ್ಥೆ. ಪುನಃ ಸಖಶಬ್ದಾತ್ ಕ್ಯಚ್ ಪ್ರತ್ಯಯ ಕ್ರಿಯತೆ. ಕ್ಯಚ್ ಪ್ರತ್ಯಯ ಕೃತೆ ಈತ್ವಂ ಭವತಿ ಸಖೀಯ ಇತಿ ಸನಾದ್ಯಂತಹ ಧಾತುಃ. ತಸ್ಮಾತ್ ಕ್ವಿಪ್ರತ್ಯಯ ಕೃತೆ ಸಖೀ ಇತಿ ಪ್ರಾತಿಪದಿಕಂ. ಸೊ ಇಸ್ ಅ ಸೆಕೆಂಡ್ ವೇ ಆಫ್ ಡಿರೈವಿಂಗ್ ದ ಪ್ರಾತಿಪದಿಕಂ, ವೆರ್ ಯು ಡೂ ಕ್ಯಚ್, ಬಟ್ ಕ್ಯಚ್ ಇಸ್ ನಾಟ್ ಫಾರ್ ಸಖಿ ಶಬ್ದ, ಇಟ್ ಇಸ್ ಫಾರ್ ಸಖ ಶಬ್ದ. ಸಖಶಬ್ದಾತ್ ಕ್ಯಚ್ ಪ್ರತ್ಯಯ ಕೃತೆ ಪುನಃ ಕ್ವಿಪ್ರತ್ಯಯ ಕೃತೆ ಅಪಿ ಸಖೀ ಇತಿ ರೂಪಂ ಭವತಿ. ಸುಖಂ ಇಚ್ಛತಿ ಇತಿ ಸುಖೀಹಿ. ಸುಖಂ ಇಸ್ ಹ್ಯಾಪಿನೆಸ್, ಪ್ಲೆಷರ್. ಸುಖಂ ಇಚ್ಛತಿ ಇತ್ಯರ್ಥೇಪಿ ನಾಮಧಾತುಃ ತತಃ ಕ್ವಿಪಿ ಸುಖೀ ಇತಿ ರೂಪಂ. ಸುತಂ ಇಚ್ಛತಿ ಇತಿ ಸುತೀಹಿ. ಸೊ ದೀಸ್ ಆರ್ ಆಲ್ ವೆರಿ ಸಿಮಿಲರ್ ವರ್ಡ್ಸ್. ಸೊ ಹಿ ಟ್ರೀಟ್ಸ್ ಆಲ್ ತ್ರೀ ಆಫ್ ದೆಮ್ ಟುಗೆದರ್. ಸಖೀಹಿ ಸುಖೀಹಿ ಸುತೀಹಿ ಇತಿ ಪ್ರಥಮ ಏಕವಚನೆ. ದಿಸ್ ಸಖೀ ಶಬ್ದ ವಿಲ್ ನಾಟ್ ಗೆಟ್ ಅನಂಗ್ ಬಿಕಾಸ್ ದಿಸ್ ಇಸ್ ನಾಟ್ ಡಿರೈವ್ಡ್ ಫ್ರಮ್ ಸಖಿ. ವೇರ್ ಇಟ್ ವಾಸ್ ಒರಿಜಿನಲಿ ಡಿರೈವ್ಡ್ ಫ್ರಮ್ ಸಖಿ ಶಬ್ದ ತತ್ರ ಏಕದೇಶ ವಿಕೃತ ನ್ಯಾಯೇನ ಅನಂಗಾದೇಶೋ ಭವತಿ. ಅತ್ರ ತು ಸಖಿ ಶಬ್ದ ಏವ ನಾಸ್ತಿ, ದೇರ್ಫೋರ್ ದೇರ್ ಇಸ್ ನೋ ಅನಂಗ್. ಯು ಡೂ ಸಖೀ ಸು ಋತ್ವಂ ವಿಸರ್ಗಃ ಸಖೀಹಿ ಸುಖೀಹಿ ಸುತೀಹಿ ಸಖ್ಯೌ ಸುಖ್ಯೌ ಸುತ್ಯೌ ಸಖೀ ಔ ಸ್ಥಿತೆ ನಿದ್ವದ್ಭಾವೋಪಿ ನಭವತಿ. ಎರನೇಕಾಚೋ ಸಂಯೋಗ ಪೂರ್ವಸ್ಯ ಇತ್ಯನೇನ ಯಣಾದೇಶಃ ಸಖ್ಯೌ ಸುಖ್ಯೌ ಸುತ್ಯೌ. ಸೊ ಫಾರ್ ಆಲ್ ತ್ರೀ ವರ್ಡ್ಸ್ ಇಟ್ ಇಸ್ ಯಣ್ ಆದೇಶ ಎವ್ರಿವೇರ್. ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ ಇತಿ ದೀರ್ಘಸ್ಯಾಪಿ ಗ್ರಹಣಾತ್ ಉಕಾರಃ. ಆಸ್ ಐ ಟೋಲ್ಡ್ ಇನ್ ನಸಿ ಆ್ಯಂಡ್ ನಸ್ ಖಿ ಖಿ ತಿ ತಿ, ವೆನ್ ವಿ ಆರ್ ಸೇಯಿಂಗ್ ಖ್ಯತ್ಯ ಇಟ್ ವಾಸ್ ಕನ್ಸಿಡರ್ಡ್ ಬೋತ್ ಹ್ರಸ್ವ ಆ್ಯಂಡ್ ದೀರ್ಘ ಕಕಾರ ವಿತ್ ಯಣ್ ಆದೇಶ ಇಸ್ ಕನ್ಸಿಡರ್ಡ್ ಇನ್ ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ. ದೇರ್ ಫೋರ್ ಇಫ್ ಯು ನೋಟಿಸ್ ಇನ್ ಆಲ್ ತ್ರೀ ವರ್ಡ್ಸ್ ದೇರ್ ಇಸ್ ಎ ಖೀ ಆ್ಯಂಡ್ ಅ ವಿಚ್ ಬಿಕಮ್ಸ್ ಖ್ಯ, ಆರ್ ಇನ್ ಸುತೀಹಿ ದೇರ್ ಇಸ್ ಎ ತಿ ಯ ವಿಚ್ ಬಿಕಮ್ಸ್ ತ್ಯ. ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ ಇತ್ಯನೇನ ಅಕಾರಸ್ಯ ಉಕಾರೆ ಸಖ್ಯುಃ ಸುಖ್ಯುಃ ಸುತ್ಯುಃ ಇತಿ ರೂಪಾಣಿ. ಓಕೆ, ಸೊ ಆಸ್ ಐ ಸೆಡ್ ದ ಒರಿಜಿನಲ್ ಫ್ರೇಮ್ವರ್ಕ್ ರಿಮೇನ್ಸ್ ದ ಸೇಮ್. ಇಫ್ ಇಟ್ ಇಸ್ ಅ ಧಾತು ಯು ಗೆಟ್ ಏರನೇಕಾಚೋ ಸಂಯೋಗ ಪೂರ್ವಸ್ಯ ಯಣಾದೇಶ. ಹಿಯರ್ ದೀಕ್ಷಿತ ಇಸ್ ಓನ್ಲಿ ಡೀಲಿಂಗ್ ವಿತ್ ಸಮಥಿಂಗ್ ಸ್ಪೆಷಲ್. ವಾಟ್ ಇಸ್ ಸ್ಪೆಷಲ್ ಇನ್ ದಿಸ್ ಕೇಸ್ ಇಸ್ ಓನ್ಲಿ ದ ಉತ್ವ ಇನ್ ಕೇಸ್ ಆಫ್ ಖ್ಯತ್ಯಾತ್ ಪರಸ್ಯ. ರೈಟ್, ಸೊ ದಿಸ್ ವಾಸ್ ದ ಅದರ್ ಸಖೀ ಶಬ್ದ ವಿಚ್ ವಿ ಸಾ. ಇದಾನೀಂ ಈಕಾರಾಂತಃ ಪುಲ್ಲಿಂಗ ಸಖೀ ಶಬ್ದ ಸಖಂ ಇಚ್ಛತಿ. ಇಟ್ ಇಸ್ ನಾಟ್ ಸಖಾಯಂ ಇಚ್ಛತಿ, ಸಖಂ ಇಚ್ಛತಿ ಇತಿ ಸಖೀ ಇತಿ ಸ್ಥಿತೆ ಸರ್ವತ್ರ ಅಜಾದಿಷು ಪ್ರತ್ಯಯೇಷು ಏರನೇಕಾಚೋ ಸಂಯೋಗ ಪೂರ್ವಸ್ಯ ಇತಿ ಯಣಾದೇಶ. ಸೊ ದಿಸ್ ಇಸ್ ದ ಕಾಮನ್ ಫ್ರೇಮ್ವರ್ಕ್. ದ ಸ್ಪೆಷಲ್ ಥಿಂಗ್ ಇಸ್ ಓನ್ಲಿ ಇನ್ ನಸಿ ಅಂಡ್ ನಸ್. ಪಂಚಮ್ಯಾಂ ಷಷ್ಠ್ಯಾಂ ಚ ವಿಶೇಷ ख्यत्यात् परस्य इत्यनेन उत्वे सख्युः इति रूपं भवति. क्लियर्? एनी क्वेश्चन्स्? लास्ट पार्ट ऑफ इकारान्तः. लूनम इच्छति इति लूनीः. लून, हाउ डू वी डिराइव लून? लू लवने इति धातुः. लू मीन्स टू कट. ओके, सो लू धातुः, तस्मात् क्त प्रत्ययः क्रियते भूते क्तः. यथा पठति इत्यस्य पठितम् इति भूते, एवं गच्छति इत्यस्य गतः इति, एवमेव क्तप्रत्ययः क्रियते निष्ठा इति सूत्रेण. भूतकाले क्तप्रत्ययः लू त इति अस्ति. इदानीं तकारस्य स्थाने नकारः आदेशः क्रियते. लू त इति स्थिते लून इति भवति. ल्वादिभ्यः इति सूत्रेण निष्ठायां नत्वं भवति. द तकार इस् कन्वर्टेड् टु ए नकार वै द सूत्र काल्ड् ल्वादिभ्यः. दट् इस् हौ यु गेट् लून. लून मीन्स् दट् विच् इस् कट्. लू छेदने अथवा लूइ लवने इति धातुः. एक्चुअली शुड बी लूइ छेदने. ओके, सो अस्माद् धातोः क्तप्रत्यये लून इति क्तप्रत्ययान्तशब्दः. लूनम् इच्छति, ही हू लैक् समथिङ्ग् विच् हेज़् बीन् कट् इत्यर्थे. लून इत्यस्मात् क्यच् प्रत्ययः क्रियते. क्यच् सिमिलर्ली अस् वि सो सुप आत्मनः क्यच् इत्यनेन क्यच् प्रत्ययः. लून य इत्यस्ति. क्यचि च इत्यनेन ईत्वे लूनी य इति धातुः. अस्माद्धातोः क्विप् च इत्यनेन क्विप् प्रत्ययः. दिस् प्रक्रिया इस् आल् द सेम्. यु डू क्यच् एण्ड् देन् यु डू क्विप्. वाट् यु आर् डूयिङ्ग् इस् यु आर् गेटिङ्ग् अ प्रातिपदिकसंज्ञा फार् इट्. क्विप्, क्विप् प्रत्यये परतः अकारलोपः यकारलोपः. Just like we saw just now in Sakhi, here also Luni V Vakarasya Vera Praktasya Ityane Na Valope Luni Iti Ikarantam Pratipadikam. Okay. Suprateya Pare Ruttam Visarkaha Luni Iti Bhavati. Why he brought this up? Okay. There are two other words. Kshamam Ichchati Iti Kshamihi. Very similar. Kshai Kshaye Iti Dhatuhu. अस्माद् धातोः क्षय् इत्यस्य क्षा ऐकारस्य आत्वं भवति आदेश उपदेशेशिति इति सूत्रेण. क्षा इत्यस्मात् निष्ठा इत्यनेन क्तप्रत्ययः. अत्र तकारस्य स्थाने मकारादेशो भवति. द त इस् रिप्लेस् बै म हियर् बै द सूत्र क्षायोमः. सो यु हेव् क्षाम. फ्रम् क्षाम यु गेट् क्षामी. लैक् यु गाट् लूनी, यु हेव् क्षामी इति ईकारान्तं प्रातिपदिकम्. There is one more. Prastimam icchati iti prastimihi. Styai shabda sanghate iti dhatuhu. Pra iti upasargate styai dhatuhu. Atrapi atvam bhavati nishtha iti ktaprateha. Tasya ktaprateyasya sthane makaradeshaha. Prastyonyatarasyam iti sutrena ma prastyama ityasti. यकारस्य स्थाने सम्प्रसारणं क्रियते. प्रस्ति सम्प्रसारणाच्च इति पूर्वरूपे प्रस्तिम. तस्य दीर्घे प्रस्तिम. प्रस्तिमम् इच्छति इति कृते प्रस्तिमी इति ईकारान्तम्. सो आल् दिस् प्रक्रिया इस् नाट् नीडेड् नौ. डोण्ट् वरी अबौट् द डीटेल्स् आफ़् द प्रक्रिया. यु जस्ट् हव् टु नोटिस् वन् पार्ट्. द ओन्ली थिङ्ग् यु हव् टु नोटिस् इन् आल् दीस् थिङ्ग्स् इस् त प्रत्ययस्य स्थाने तकारस्य स्थाने मकारः कृतः. इन् प्रस्तीम द त हेज़् बीन् रिप्लेस्ड् बै म. इन् प्रीवियस् वन् क्षाम, क्षामीः इत्यत्रापि तकारस्य स्थाने मकारादेशः कृतः. लूनीः इत्यस्य इत्यत्र तकारस्य स्थाने नकारादेशः कृतः. रैट्? नोटिस् दट् इट् इस् त विच् इस् बीङ्ग् रिप्लेस्ड् बै न. एण्ड् आल्सो नोटिस् दट् द रिप्लेस्मेण्ट् इस् डन् बै ए सूत्र इन् द त्रिपादि. ल्वादिभ्यः इति सूत्रं तकारस्य स्थाने नकारादेशः. ल्वादिभ्यः इति सूत्रेण त्रिपाद्यां विद्यते 8-44. सिमिलर्ली क्षात तकारस्य स्थाने मकारादेशः क्षायोमः इति सूत्रेण तदपि त्रिपाद्यां वर्तते अष्टमाध्यायस्य द्वितीयपादे. अत्रापि प्रत्योन्यतरस्याम् इति तकारस्य स्थाने मकारादेशः अष्टमाध्यायस्य तृतीयपादे त्रिपाद्याम् अस्ति. वाट् इस् द स्पेशालिटि आफ् त्रिपादी? त्रिपाद्याम् अस्ति चेत् को विशेषः? हेमा पूर्वत्र असिद्धम्. पूर्वत्र असिद्धम् इत्यनेन सपादसप्ताध्यायीं प्रति त्रिपादी असिद्धा इति उक्तम्. देयरफोर इफ देयर इज सम सूत्र इन द सपादसप्ताध्यायी इट विल नॉट नो दैट द स्विच द तकार हैज बीन स्विच्ड टू मकार और नकार, राइट? सो सिंस दीस सूत्रास व्हिच कन्वर्ट तकार टू मकार आर इन द असिद्ध कांड इन द त्रिपादी, whatever sutras are present in the sapada saptadhyayi will not realize that the switch has occurred. As far as they are concerned, there is a takara here, right? Prasya ta takara eva asti iti bhavati tesham sutranam drishtya. Sapada saptadhyayi sa sutranam drishtya atra takara asti. Takara asti chet kim bhavati? एषां नसिंहसोः यण् इदानीं लूनी अस् इत्यस्ति. लूनी अस् अथवा क्षामी अस् प्रस्तीमी अस् इत्यस्ति. सर्वत्र नसिंहसोः परयोः यणादेशः क्रियते. लून्यस् क्षाम्यस् प्रस्तीम्यस् इति भवति. नसिंहसोः यणादेशे कृते लून्यस् क्षाम्यस् प्रस्तीम्यस् इत्यस्ति. यथा उक्तं तकारस्य नकारादेशः मकारादेशो वा असिद्धः. सिन्स् इट् इस् असिद्ध सपादसप्ताध्यायी थिङ्क्स् दट् देर् इस् अ तकार. इफ् देर् इस् अ तकार द रूपा वुड् बि लूत्य क्षाम्य क्षात्य और् प्रस्तीत्य. वेन् दट् इस् द केस् ख्यत्यात् परस्य कृतयणादेशाभ्यां खिखी शब्दाभ्यां ति ती शब्दाभ्यां इफ् देर् इस् अ ति विच् हेस् गाटन् यणादेश लैक् वि सा इन् पत्युः अत्रापि उकारादेशः भवति. द होल् पायिण्ट् इस् सिन्स् द कन्वर्शन् आफ् तकार टु नकार और् मकार इस् असिद्ध फार् ख्यत्यात् परस्य there is a takara here. If there is a takara, khyatyat parasya will apply and convert it to a ukara. Natva matvayohu asiddhatvat khyatyat parasya iti utvam. Lunyuhu, kshamyuhu, prastimyuhu. So if this nakara or makara were seen by khyatyat parasya, the ukara would not have happened because there is no tya or khya. Khyatyat parasya iti chyate. ख्य इत्यपि नास्ति त्य इत्यपि नास्ति तथापि अस्य नकारस्य मकारस्य च असिद्धत्वात् सिंस ख्यात्यात्परस्य डज नॉट नो द कन्वर्शन ऑफ तकारा टू न और म इट कंसिडर्स दैट देयर इज अ तकारा एंड कन्वर्ट्स द अकारा टू उ तेन पंचम्यां षष्ठ्यां च लून्यः क्षाम्यः प्रस्थीम्यः इति रूपाणि ओके There are two other cases very similar, he says. Shushkiyatehe kvipu. Shusha dhatuhu. Tasmat kta pratyaha. Shusha ta iti sthite. Shushak kaha ittenena takarasya sthane kakaraha kriyate. Shushkam iti bhavati. Just like we saw that the ta was replaced by na and ma there. Here, the ta is replaced by ka. Shushak kaha ittenena kattvam bhavati. पक्वीहि पचति इत्यस्य क्तप्रत्यये पचोवः इत्यनेन तकारस्य स्थाने वकारादेशः क्रियते पक्वम् मीन्स् दट् विच् हेस् बीन् कुक्ड् सो इन् दीस् टु केसस् आल्सो यु सी दट् द त हेस् बीन् कन्वर्टेड् इन् वन् केस् टु क एण्ड् इन् द अदर् टु व द क्वश्चन् इस् विल् ख्यत्यात्परस्य आपरेट् हियर् आल्सो अत्रापि ख्यत्यात्परस्य इति उत्तमं भवति वा इति प्रश्नः तदर्थं वदति सः इयं शुष्कीः इत्यस्ति औ प्रत्यये कृते इयङादेशः भवति शुष्की औ अचिष्णुधातुभ्रुवां योर् इयङ् उमङौ इत्यनेन इयङादेशः शुष्कियौ शुष्कियः एवं पक्वियौ पक्वियः वै इयङ् वै नाट् यण् इन् लूनीः वि डु यण् लूनीः लून्यौ लून्यः क्षामीः क्षाम्यौ क्षाम्यः अत्र किमर्थं यणादेशः न क्रियते वै आर् वि नाट् अप्लयिङ्ग् यण् हियर् एरनेकाचो संयोगपूर्वस्य इत्यनेन यणादेशः कुतो न भवति इकारः संयोगपूर्वः सूत्रार्थः भवति धात्ववयव संयोगपूर्वो न भवति इकारः यत्र इवर्णात् प्राक् संयोगः विद्यते तत्र यणादेशो न भवति तस्मात् इयङ् शुष्कियौ शुष्कियः संयोगपूर्वकत्वात् न यण् यणः अभावे ख्यत्यात्परस्य इति उत्तममपि न भवति किमुक्तं कृतयणादेशाभ्यां खिकीशब्दाभ्यां तितीशब्दाभ्यां यत्र यणादेशः अस्ति तत्रैव उत्तममपि भवति सिन्स् दिस् के नाट् गेट् यण् अत्र उत्तममपि न भवति शुष्की अस् इति स्थिते अचिष्णुधातुभ्रुवाम् इत्यनेन इयङादेशे शुष्कियस् ऋत्वं विसर्गः शुष्कियः इत्यादि सो सिन्स् देर् इस् नो यण् ख्यत्यात्परस्य विल् आल्सो नाट् अप्लै इवन् इफ् इट् थिङ्क्स् देर् इस् त आर् व देर् इस् त इन् प्लेस् आफ् क आर् व तथापि ख्यत्यात्परस्य इत्यस्य प्रवृत्तिः न भवति कृतयणादेशत्वाभावात् नथिङ्ग् असोः शुष्कियः पक्वियः इत्यादि सो दट् एण्ड्स् ईकारान्तपुल्लिङ्गस् एनी क्वश्चन्स् सो फा Okay. There is a question by Ravichandraji which I left them. What is the difference in between meaning between sakhayam ichchati and sakham ichchati? Well, sakhayam ichchati ityukte mitram ichchati, he who wants a friend. Sakham, sakha nama mitram iti nasti. Sakha does not mean a friend. Sakha means somebody who is with or in the sky always. One of the meanings is a bird. So one who desires a bird would be sakham ichchati. There is no sakhiyam ichchati. There is one sakhayam ichchati. And sakham ichchati. Yes. Okay. So now, ikaranta pullingas have actually taken a long time. Right? We have been studying this since a long time and there are so many words. so many unfamiliar words that there tends to be a confusion. But actually, it's very simple. When you consider ikaranta pullingas as a whole, you have to make a difference between what are the types, what are the basic types which exist, and what would be the sutra which would apply for that type. ikaranta pullingaha tatra prathamaha vidhaha bhavati anadi samyakaha adhatuhu. In the first type, there is no nadi samya and there is no dhatu. They are the two important factors which need to be considered here. Does it have a nadi samya? Does it have a dhatu? Ikarantaha pullingaha ityukte adau tadeva vicharyam. Nadi samya astiva, dhatutvam astiva. Iti prashnaha. Prathama vidhe. In the first type of ikaranta pullingas, nadi samya api na bhavati, dhatutvam api na bhavati. Okay? Tada kim bhavati? Iti chet. Iko enasi iti anadeshaha. Sarvatra iko enasi ityanena en bhavati. Ami amprateye dvitiya vibhaktau ekavachane ami purvaha iti purvarupam bhavati. Shas prateye pare prathamayoh purva savarna dirghaha iti purva savarna. These are all like we had. It's a very general sutra. Nothing specific for ikarantas. Now savarna dirghaha. Ni prateye krute yatha vata prami i ityastache agasavarna dirghaha ityanena savarna dirghaha. Only very general sutras apply. If you see, there is nothing specific here. No new sutra. Kimudaharanam avunadikaha vataprami shabdaha. This is the first word which we studied. Vatam pramimite. Vataprami sutrena e prateha bhavati. Vatapra ma dhatohu e prateha bhavati. Asya nadi samyanasti. Strilingatva bhavata nadi samyanasti. Dhatutvamapi nasti. Kim bhavati? Only this. Everywhere, generally there is a yanadesha. In amshas and ni, there are purvarupa, purvasavarnadirgha and savarnadirgha. Okay, that is one type where the word is neither has neither nadi samya nor a dhatu samya. Vitiyaha vidhaha kaha. Nadi samya asti, dhatutvam nasti. Right? Nitya strilingatvat, yustriakshav nadi. Ivarna uvarna antau nitya strilingau nadi samyau saha. Okay? Nitya strilingatvam asti chet nadi samya bhavati dhatutvam nasti. Tadakim bhavati nadi samya prayuktani karyani bhavanti. Kani tani iti chet sambuddhi hrasvaha. Ambartha nadyor hrasvaha. Ityanena sambuddhau hrasvaha kriyate. Nitsu adagamaha an nadyaha. Ityanena nitam pratyayanam adagamaha bhavati. Aam pratyaye hrasva nadyapo nut ityanena nudagamaha bhavati. Neram nadyam nibhyaha ityanena nyehe amadesho bhavati. These are all karyas which depend on nadi samya. Yadi padasya nadi samya asti tarhi etani karyani bhavanti. Anyatra, other than these, iko enachi iti anadeshaha. Just like we had in the previous case, there would be yen by iko enachi. Purva rupa, purva savarna dirgha as it applies. Now savarna dirgha na bhavati. Sorry, because ni prateye pare aam iti adeshaha kriyate. Right? So this one part is wrong. Ni nge hai aamadeshaha na bhavati. Nadi samyayaha sattvat. Sorry. Ni prateye pare savarna dirgha na bhavati. Aamadeshasya kritatvat. Kimudaharanam bahushreyasi. Bahvyaha shreyasyaha yasya saha. Shreyasi iti nitya strilingatvat nadi samya asti. Okay. Similarly, atilakshmihi. Atrapi nadi samya asti. So in both these cases, these are the things which happen. Between these two, there is only one difference. In bahushreyasi, there is sulopa because of nyantatvat. Halnyabhyo dirghal satisya praktam hal ityanena sulopo bhavati. Atilakshmihi ityatra anyantatvat. Ni pratyayantatva bhavat sulopo na bhavati. These two actually belong to the same type. The only difference is sulopa or not having sulopa. Yeah? So the second type where there is nadi samya prayuktani karyani bhavanti, iko yanachi iti yanadesho bhavati, purva rupam purva savarnadirghascha bhavataha. Tritiyaha kaha, nadi samya nasti dhatutvam asti. So it's just a permutation between these two. Okay. So there is no nadi samya, but it is a dhatu. And what kind of a dhatu? A dhatu ending in ikara, asanyova purvaka ivarnantaha dhatuhu, anekach angam. So, I mean, you should know why these adjectives are needed. Obviously, because in such a case, if the dhatu is of this kind, nadi samyanasti dhatuhu asti, dhatuhu yadi ivarnantaha asanyova purvakaha anekach angam bhavati, tadakim bhavati, sarvatra ajadishu pratyayeshu eranekacho sanyoga purvasya iti anadesho bhavati. Everywhere you do end, there is no purva rupa, no purva savarna dirgha, no savarna dirgha. Everywhere blanket anadeshaha eranekacho sanyoga purvasya iti sutrena. Yadi pratipadikam pratipadikasya nadi samyanasti dhatu samyasti kidrishaha dhatuhu idrishaha asanyoga purvakaha ivaranantaha aneka jangam tada sarvatra eranekacho sanyoga purvasya iti anadesho bhavati. No other karya will happen. Udaharanam pradhihi pradhyayati iti pradhihi vataprimihi fibantaha. If you remember, vataprami is of two types. One is aunadika I pratyayantaha saha prathama vidhayantar bhavati. It belongs to the first type. If it is a kvibanta of mi dhatu, since there is an ikaranta dhatu, it belongs to the third type. Similarly, you have unnihi, unnayati, gramanihi, gramam nayati, sarvatra nadi samyanasti dhatutvam asti. So everywhere there is eranekacho sanyoga purvasya iti yanadeshaha. Okay, that's all. But if there is ni shabda, there is a special thing, nye hai amadeshaha. Neram nadyam nibhyaha tyuktatvat. If it is ni shabda, other than yanadesha, there is only one specific karya, which is the amadesha for ni. But other than that, all these words belong to the same type, nadi samyanasti dhatutvam asti. Chaturtha vidhe kim bhavati, nadi samyapi asti dhatutvam asti. So the fourth type is where there is both, it has nadi samya and it has dhatu. Dhatu samya, and the dhatu is of the same type. Asanyoga purvakaha hikaraha aneka jangam. Tadakim bhavati nadi samya prayuktani karyani. Sambuddhi hasvaha, mita madagamaha, amo nudagamaha, nyehe amadeshaha. Iti nadi samya prayuktani tani karyani bhavanti. Dhatutva prayuktaha yanadeshaha. Eranekacho sanyoga purvasya ityanena yanadesho bhavati. Okay? You just club whatever we saw in the second type and third type. We club it, you have the fourth one, where you have both nadi samya and dhatutva. Udaharanam kumari. Kumarim atmanaha icchati ityarthe. Kumari iti rupam. Atra strilingatvatu nadi samya vidyate, dhatutvatu dhatutvam apyasti sanadi pratyayantatvatu. Similarly, prakrishtadhihi yasya saha iti kritepi, dhihi ityasya nitya strilingatvat nadi samya vidyate, dhatutvam apyasti. In both these cases, you do both nadi samya prayukta karya and dhatutva prayukta karya. Again, the difference between these two is sulopa. Kumari ityasya yantatva sulopo bhavati, pradhihi ityatra yantatva bhavat sulopo na bhavati. Yeah, this is the fourth type where there is both nadi samya and there is a dhatutva. Okay? So first type is where there is neither nadi samya nor dhatutva. Second, where there is nadi samya but no dhatu samya. Third, where is there is no nadi samya but dhatu samya. And the fourth, where there is both. Okay? So these are the four types. Similarly, same thing, the third and fourth gets repeated. If the dhatu is not of this type, yadi sanyoga purvakatvam asti athava ekach bhavati, tada kim bhavati anadi samyakaha. This is a complementary to the third type, where nadi samya nasti dhatutvam asti kintu kidrisho dhatuhu sanyoga purvakaha ikaraha bhavitum arhati ekach angam bhavitum arhati gatikara ketara purvakaha. Remember the vartika, gatikara ketara purvapadasya yen neshyate. If it has something other than gati or karaka as the purvapada, there would be no yan. Or if it is sudhi shabda, where nabhusudhiyohu iti yanaha nishedho bhavati. So this is a case where yan is will not apply due to different reasons. It might be negated by nabhusudhiyohu or the conditions might not be satisfied, the conditions for yan. So if such a dhatu is there, yanaha sthane iyangadesho bhavati. That is all. Instead of yan, you have yang. Ajadishu pratyayeshu achishnudhatu bhruvam ityanena iyangadesho bhavati. It's just instead of yan, you have yang and no other difference. So the difference is only in the dhatu. If it has dhatu samya, you have to check will it get yan or will it get yang. Everything else will remain the same. Kimudaharanam nihi, nihi niyau niyaha. Atra ekachtva, since the anga is ekach, eran ekacho sanyoga purvasya iti anadesho na bhavati. Iyangadeshaha nihi niyau niyaha. Sushrihi yavakrihi sanyoga purvakatva. Shri kri iti sanyoga vidyate ivarnat prak. Tasmat atrapi yanadesho na bhavati. Iyang sushrihi sushriyau sushriyaha. Yavakrihi yavakriyau yavakriyaha. Sudhihi इत्यस्य किमस्ति अत्रापि नभूसुधियोः इति यणः निषिद्धत्वा इयं भवति शुष्कीः पक्वीः इदानीम् अधीतं संयोगपूर्वकत्वात् यण् न भवति इयं आदेशः. सो एव्रीवेर् इफ् देर् इस् नो नदी सम्या इफ् इट् इस् अ धातु यु हाव् अचिष्णुधातु भ्रुवाम् इत्यनेन इयङादेशो भवति. एवमेव आल् अदर् वर्ड्स् विच् वि स्टडीड् टुडे सखायमिच्छति इति सखी सखा एंड यू हैव सखी सखमिच्छति इति सखी सुखमिच्छति इति सुखी सुती लूनी क्षामी प्रतिमी सर्वत्र एव्रीवेयर यू हैव यंग. सॉरी दिस इज ऑल यू हैव यंग. वेरी सॉरी आई शुड नॉट हैव इंक्लूडेड दिस हियर. ऑल दीज बिलोंग टू द प्रीवियस केस टू द थर्ड टाइप where there is yanadesha, right? So they are all dhatus. Sarvatra dhatu samya asti, nadi samya nasti, yanadesha tu bhavati. So they belong to the third type. Yadi yan nishiddhaha, tarhi atra, panchame vidhe antar bhavati. And the last type, it has both nadi samya and dhatu samya. And the dhatu is of the type where there is no yan. संयोगपूर्वकैकारः एकाजङ्गं गतिकारकेतरपूर्वपदौ वा धातुः. तदा किं भवति नदीसंज्ञा प्रयुक्तानि कार्याणि सम्बुद्धिह्रस्वः आडागम नुडागमौ आमादेशः धातुत्वप्रयुक्तः इयङादेशः. सिन्स् यण् केनाट् अप्लै यु हाव् इयङ्. एन् एक्साम्पल् आफ् दिस् टैप् इस् शुद्धधीः परमधीः वेर् as you notice, since yan is not there, and dhi, shuddha dhihi, ityatra, trilingatvat, nadi samyapi vidyate, so shuddha dhihi, shuddha dhiyau, shuddha dhiyaha, paramadhihi, paramadhiyau, paramadhiyaha, eva meva durdhihi, rishchikabhihi. As we argued, durdhihi, there is no gati samya for dur with respect to dhi, rishchikabhihi, ityatrapi, apadana karakattam, navivakshitam. तेन सर्वत्र इयङादेश एव भवति. सो आल् दीस् हव् बोत् नदी संज्ञा एण्ड् धातुत्व. सो दट् इस् आल् अबौट् इकारान्तपुल्लिङ्ग. ओन्ली टु थिङ्ग्स् यु हव् टु चेक्. चेक् इफ् दर् इस् नदी संज्ञा. नेक्स्ट् चेक् इफ् इट् इस् अ धातु. नदी संज्ञा प्रयुक्तानि कार्याणि सम्बुद्धिह्रस्व आडागम नुडागम आमादेशाः धातुत्वप्रयुक्तः यण् अथवा इयम्. Will it be yan or iyang? You have to decide looking at the type of dhatu. So apart from it, there could be some special karya somewhere, but this is the basic of ikaranta pullingas. Any questions? So from next class, start with Ukaranta. So Ukaranta, that will be much easier. Always the Ikaranta Pullinga tends to, first thing, the Shabdas are not familiar. That is why it gets a bit boring after a while. And also, there are different types. If you go to Ikaranta, there is only one Hari, Sakhi, Pati. I mean, there were others, but main types were very little. But here you see that there are different types where you have to think a bit. So that is why it might seem a bit difficult in the beginning, but it's okay. As we go on, it will okay. So that's about Ikarantas. We'll start with Ikarantas in the next class. For this, I just wanted to ask people something. And this the timing of 8 to 9. It's a bit difficult to, I mean, it's being a bit difficult to fit into schedule because classes keep getting cancelled due to various reasons. I was wondering how many of you could attend if I shifted the class to early morning IST in Indian time. You're having it IST. This is 8 PM to 9 PM. So if the class were IST 5 AM to 6 AM. How many of you would be able to attend? See. Would it be possible at that time? Three people say yes, the others. Okay. Four. Wednesday and Thursday, there is another by Satish. What time, Hema? Okay. Okay, so we'll have to check and adjust with those timings. I mean, I'll have to look at the webinar timings also. But okay, if it is if Satish's class is not there, correct. It will be 3 days a week. Yeah. Okay. So there might be a timing clash, right? So I'll have to look at that. I'll look at the timings of the webinar. I'll look at the timings, but I just wanted to know what is the convenience of students' timings. I mean, webinar we'll see later what will happen. So, yeah. Oh, sorry. Yes, Himaji. Okay, yeah. Okay. So. Sadago Panji. Okay. हाँ हेलो, हाँ हेलो, ओके ओके थैंक यू. सो द डे इज एक्चुअली आई डोंट माइंड शिफ्टिंग और नॉट शिफ्टिंग, आई जस्ट वॉन्ट टू नो द टाइम, बिकॉज आई मीन इट शुड नॉट क्लैश विथ वन थिंग, द वेबिनार टाइमिंग. एंड इवन इफ यू मैनेज अ वेबिनार समहाउ, आई थिंक मेनी पीपल, आई मीन एटलीस्ट अ कपल ऑफ पीपल हियर आर ऑल्सो अटेंडिंग सतीश जीज क्लासेस, सो आई डोंट वॉन्ट टू पुट इट इन अ वे टू क्लैश विथ हिज क्लास. सो आई टॉक टू रवि और कल्पेश एंड वील सी, आई इन्फॉर्म यू ऑन द रिगार्डिंग द ओके. ट्यूसडे फ्राइडे देर इज नो क्लास, क्लैश. ओके सो मे बी ट्यूसडे फ्राइडे, दैट्स फाइन. सो वील सी, आई टॉक टू द अदर्स एंड लेट यू ऑल नो. मंडे ऑल्सो नो क्लैश इन श्योर. आई थिंक वसुजी सेड देयर इज somebody else is taking on Monday, somebody else is using the webinar on Monday. Okay, anyway, I'll look at this and I'll tell you. So I guess for now we'll stop here. I'll inform you all in the next class about change in timings, if any. ఏనాక్షరసమాధిగమ్యమేశ్వర కృత్స్నం వ్యాకరణం ప్రోక్తం తస్మై పాణినయే నమః. వాక్యకారం వరరుచిం భాష్యకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుపీ పరిభావ్య వైయాకరణసిద్ధాంతకౌముదీయం విరచ్యతే.